अस्तु, नमो नमः पुनः न्यायवर्गे सर्वेषां स्वागतं. गतवर्गे अस्माभिः करपत्राणां पठनं कृतमासीत्. ततः पूर्वम् अभावः इति विषयस्य चर्चा प्रमाणा आसीत्. तं विषयम् अधिकृत्य अद्य अग्रे सरेम. अष्टादशपुटं पश्यन्तु सर्वे, पेज् 18 इति. कृपया वेणुगोपाल् महोदय पश्यति वा? ततः आरभ्य पठतु महोदय, यथा प्रकृते.
यथा प्रकृते विदेषु क्षणेषु घटो वा भवेत्, घटाभावो वा भवेत् न कदाचित् कदाचित् उभौ. अयमेव सहनावस्थानरूपः विरोधः इत्युच्यते. यदा प्रकृते विविधेषु क्षणेषु घटो वा भवेत्, घटाभावो वा भवेत् न कदाचित्
उभौ. किञ्चित् स्मरति वा महोदय, कुत्र वयम् आस्म इति?
पूर्वस्मिन् द्वौ विरोधः द्वौ अस्ति. वद्याघातकभावः तथा सहनारूपविरोधः इति द्वौ विरोधः अभावः इति अस्ति स्तः.
समीचीनं महोदय. विरोधरूपद्वयमस्ति,
विरोधरूपद्वयमस्ति.
सहनावस्थानरूपविरोधः इति अस्ति. अभावस्थले कीदृशविरोधः भवति?
अभावस्थले कीदृशविरोधः? वज्राघातकभावः अभावः सहनावस्था अभावः इति.
एकनिमिषं महोदय, वद्यघातक अभावः इति न उक्तं तत्र, वद्यघातकभावः. विरोधस्य स्वरूपः वद्यघातकभावः इति. किन्तु अभावस्थले यत्र अभावः भवति तत्र कीदृशविरोधः भवति? वद्यघातकभावः वा अथवा सहनावस्थानरूपः वा? अस्तु, तत्र सप्तादशे पुटे यदस्ति सहनावस्थानरूपविरोधः, तद् पठतु एकवारम्.
अस्तु अस्तु, यदा प्रकृते विविधेषु क्षणेषु.
सप्तादशे पुटे अन्तिमभागं पठतु.
अस्तु अस्तु, सहनावस्थानां नामसः विरोधः यत्र अभावो विरोधिनोः कस्मिन् अपि काले सः अवस्थानां स्थितिः न भवति. आदौ एकः चित्रं ददाति. प्रथमक्षणे घटाभावः अस्ति, द्वितीयक्षणः घटाभावः अस्ति, तृतीयक्षणः घटः अस्ति, तृतीयक्षणः अपि घटः अस्ति. यदि
समीचीनतया दृष्ट्वा पठतु. अत्र वैशिष्ट्यमस्ति, यतोहि कस्मिन्नपि क्षणे विरोधिनौ स्तः खलु. घटाभावः इति एकः विरोधी, घटः इति एकः विरोधी अस्ति.
अस्तु,
उभयोः विरोधिनोः एकस्मिन् समये अवस्थानं भवति वा?
न भवति.
इति एव सहानावस्थानरूपविरोधः. तादृशविरोधः कुत्र भवति इति चेत् केवलम् अभावस्थले. अस्तु, इति एव सहानावस्थानरूपः. अस्तु, अभावः इति अस्माकं विषयः, तदपरं किञ्चित् पठितवन्तः. अधुना अग्रे सरतु. अग्रिमपुटे किमस्ति?
अग्रिमपुटे यथा प्रकृते विविधेषु क्षणेषु घटो वा भवेत्, घटाभावो वा भवेत् न, कदाचित् उभौ. द्वौ घटाभावः अथवा घटः द्वौ न भवति. एकस्मिन् यदि यदि घटः भवति चेत् तत्र घटाभावः नास्ति. घटः यदि घटः भवति न चेत् घटाभावः इति भवति. उभौ न एकत्र न भवेत्
इति वार्ता. तदेव सहनावस्थानरूपः विरोधः. अस्तु, तर्हि चित्रे किं प्रदर्शितं? विरोधः कुत्र कुत्र अस्ति तर्हि?
विरोधः विरोधः घटाभावः निष्ठ विरोधः
अपि च
घटानिष्ठ
मध्ये चित्रे यदस्ति तदेव वक्तव्यं. घटनिष्ठविरोधः घटाभावनिष्ठ.
अस्तु अस्तु, घटनिष्ठविरोधः घटाभावनिष्ठविरोधः.
हा, विरोधी विरोधी इति किमर्थं वदामः? यतोहि तत्र विरोधः अस्ति खलु.
विरोधः अस्तु.
यथा गुणी इति वदामः, यस्मिन् गुणः सः गुणी तद्वद्. यत्र विरोधः, यस्मिन् विरोधः सः विरोधी. अत्र द्वौ विरोधिनौ स्तः, कौ तौ?
घटः घटाभावः.
हा, बहु समीचीनं. घटः घटाभावः, उभयोः मध्ये परस्परविरोधः वर्तते. यत्र घटः भवति तत्र घटाभावः न तिष्ठति, यत्र घटाभावः भवति तत्र घटः नास्ति इति जानीमः. इति विरोधस्य विरोधस्य स्वभावः अथवा स्वरूपः तादृशः इति वक्तुं शक्यते. अस्तु महोदय, इदानीम् अग्रे किञ्चित् पठतु, अग्रिमपरिच्छेदं.
प्रतियोग्यनियोगिभावनिरूपणम्. अत्र निरूपणसौकर्याय घटे विद्यमानस्य विरोधस्य प्रतियोगिता इति संज्ञा कृता. अभावे विद्यमानस्य विरोधस्य अनियोगिता इति संज्ञा. अत्र द्वौ संज्ञा किम् अस्ति इति दत्तवान्. अत्र निरूपणसौकर्याय घटा विद्यमानस्य विरोधस्य घटा विरोधस्य संज्ञा इति प्रतियोगिता इति दत्तवान्. अथवा अभावस्य विरोधस्य संज्ञा अनुयोगिता इति दत्तवान्.
संज्ञा इत्युक्ते?
संज्ञा इत्युक्ते नामकरणम्.
हा हा हा, समीचीनं. तावदेव इत्युक्ते विरोधः उभयत्र अस्ति खलु.
अस्तु,
तर्हि कः विरोधः कुत्र अस्ति इति कथं जानीमः? केवलं स्पष्टप्रतिपत्तये घटे घटनिष्ठप्रतियोगिता इति वदामः. घटे यः विरोधः अस्ति तस्य नाम प्रतियोगिता. अभावे यः विरोधः अस्ति तस्य नाम किम्?
अनियोगिता
इति अस्ति. अस्तु, संज्ञाद्वयम्. इतः अग्रे किञ्चित् सरेम. अपि च केन केन आगतं नूतनतया?
रघुपति आचार्य महोदय.
रघुपति महोदय, अनन्तरं कोऽपि अस्ति वा? 976 कस्य सङ्ख्या? 9762703304. इतोपि जनाः सन्ति. चक्री महोदय इति न श्रूयते एव. श्रीधर् महोदय अधुना कुर्वन् अस्ति वा भवतः म्यूट् मैक् विषये? नो चेत् दूरवाण्या आह्वातुं शक्नोति. अस्तु, इतः अग्रे सरेम. मेहुला महोदय अग्रे पठति वा?
आं महोदय, एकः प्रश्नः अस्ति.
अभावे विद्यमानस्य विरोधस्य अनियोगिता इति नाम संज्ञा अस्ति, संज्ञा अस्ति, अतः सर्वे अपि कुत्रापि अभावः अस्ति तत्र अनियोगिता इति संज्ञा अस्ति वा?
यत्र अभावः अस्ति तस्मिन् विद्यमानविरोधस्य नाम अनुयोगिता। परन्तु अग्रे आगच्छति भवतः प्रश्नस्य आशयः कः इति चेत्, अस्तु सर्वत्र अनुयोगिता अस्ति चेत् कथं जानीमः का अनुयोगिता कीदृशी, तदर्थम् अग्रे अग्रिमभागः पठतु महोदय।
इयं प्रतियोगिता अनुयोगिता च साकाङ्क्षा भवति, विरोधः प्रतियोगिता इत्युक्तौ कस्य इति नियमेन खलु प्रश्नः भवति, एवम् अनियोगितायाः अपि ससम्बन्धिकत्वम्, अतः आधेयताधिकरणतयोः यथा निरूप्यनिरूपकभावः उच्यते तथा अत्रापि वक्तव्यः। अत्र प्रतियोगिता अनियोगिता वयं दृष्टवन्तः, एकं संज्ञा अस्ति अभावस्य विरोधस्य द्वयोः संज्ञाः अस्ति, द्वयोः अपि साकाङ्क्षा भवति, इत्युक्ते यदि वयं प्रतियोगिता इति वदामः चेत् कस्य प्रतियोगिता इति प्रश्नः उद्भवति, एवम् अनियोगिताय अपि वदामि चेत् तत्रापि कस्य अनियोगिता इति प्रश्नः भवति, अतः अनियोगिता प्रतियोगिता द्वौ ससम्बन्धिकः पदौ स्तः, तत्र अधेयता अधिकरणता अपि निरूप्यनिरूपकभावः अपि अस्ति, तत्र एक अधः एकचित्रं दत्तमस्ति, यदि वयं
महोदय महोदय स्मरति वा आधेयता अधिकरणता विषये स्मरति वा यत् अस्माभिः पठितमस्ति?
आम् आम्, यज्ञदत्तः अधेयः अस्ति, अनन्तरम् आसनम् अधिकरण अस्ति, तत्र यज्ञदत्तः उपरि अस्ति अतः अधेयः अस्ति, अधिकरण अधः अस्ति, आसनः अधः अस्ति अतः आसने अधिकरणता अस्ति, यज्ञदत्ते अधेयता अस्ति। अत्रापि अनियोगिता प्रतियोगिता मध्ये अपि आधार आधेय सम्बन्धः अस्ति, अपि च प्रतियोगिता अनियोगिता मध्ये अपि निरूप्यनिरूपकभावः अस्ति, तत्र चित्रे सर्वदत्तमस्ति।
बहु समीचीनं महोदय, नाम यत्र यत्र ससम्बन्धिकता वर्तते अथवा यौकौ अपि पदार्थौ साकाङ्क्षौ इति वदामः तयोः मध्ये निरूप्यनिरूपकभावः वर्तते इति। अत्र ससम्बन्धिकौ अथवा साकाङ्क्षौ पदार्थौ कौ इति?
अत्र प्रतियोगिता अनियोक्ता इति साकाङ्क्षा अपि च ससम्बन्धिकौ पदौ पदार्थौ।
बहु समीचीनम्, अस्तु अग्रिमचित्रं किञ्चित् निरूपयतु।
आम्, अग्रिमचित्रे दत्तमस्ति घटनिष्ठप्रतियोगिता निरूपित अनियोगितावान् अभावः, अनन्तरम् अभावनिष्ठ अनियोगिता निरूपित प्रतियोगिताश्रयः घटः, अनन्तरम् अभावनिष्ठ अनियोगिता निरूपित घटनिष्ठप्रतियोगिता, अपि च घटनिष्ठप्रतियोगिता निरूपित अभावनिष्ठ अनियोगिता।
हा, बहु समीचीनमस्ति महोदय। तर्हि भवान् पृष्टवान् अनियोगिता सर्वत्र अस्ति किल, यत्र कुत्रापि अभावः तत्र तत्र अस्ति, परन्तु यदि प्रश्नः उदेति घटाभावस्थले कीदृशी अनुयोगिता इति प्रश्नः उदेति चेत् तत्र विवरणं कथं भवति?
घटाभावे कथम् अनुयोगिता इत्युक्ते घटनिष्ठ घटाभाव घटाभावनिष्ठ अनुयोगिता निरूपित प्रतियोगिता।
हा, इति प्रतियोगितायाः वर्णनं सम्यक् आसीत्, अधुना अनुयोगितायाः वर्णनम्। इयम् अनुयोगिता नाम अस्मिन् सन्दर्भे या अनुयोगिता सा भिन्ना, कथम् इति चेत्
कश्चनपि निष्ठप्रतियोगिता, अत्र घटस्य उदाहरणं दत्तमस्ति, अतः घटनिष्ठप्रतियोगिता निरूपित अभावनिष्ठ अनियोगिता
इति वक्तव्यं भवति। अस्तु, इयम् अनुयोगिता अपरस्याः भिन्ना कथम् इति चेत् घटनिष्ठप्रतियोगितया निरूपिता। न तु पटनिष्ठप्रतियोगितया इति भवति. अस्तु, सम्यक्. एवमेव प्रतियोगितायाः अपि विवरणं घटाभावनिष्ठ अनुयोगितया निरूपिता इयं प्रतियोगिता इति आगच्छेत्.
धन्यवादः.
अग्रिमवाक्यमपि पठतु महोदय किञ्चित्.
अस्तु, घटनिष्ठप्रतियोगितानिरूपित अनुयोगात् अनियोगिताश्रयः भावः, अभावनिष्ठ अनियोगितानिरूपितप्रतियोगिताश्रयः घटः इति वक्तव्यम्. अयमेव सङ्ग्रहे वक्ष्यमाणेषु अभावेषु अत्यन्ताभावः इति निर्दिष्टः. अत्र पुनः एकवारं चित्रस्य विवरणं दत्तमस्ति. घटनिष्ठप्रतियोगितानिरूपित अनियोगिताश्रयः भावः, अपि च अभावनिष्ठ अनियोगितानिरूपितप्रतियोगिताश्रयः घटः. अत्र अयम् एव सङ्ग्रहे वक्ष्यमाणेषु अभावेषु अत्यन्ताभावः इति निर्दिष्टः. अत्र अहं चिन्तयामि वक्ष्यमाणेषु सङ्ग्रहे वक्ष्यमाणेषु इत्युक्ते यदि वयं घटनिष्ठ अपि च घटाभावनिष्ठ इति वक्तव्यं अधुना उक्तवान्, तत्र अभावस्य अत्यन्ताभावः निर्दिष्टः अस्ति. अत्यन्ताभावः इत्युक्ते अहं न जाने, परन्तु
चिन्ता नास्ति, तद् चिन्ता नास्ति. तदर्थमेव वक्ष्यमाणेषु इति उक्तं खलु. वक्ष्यते, वक्ति इति लट्लकारे इत्युक्ते वर्तमानकाले प्रयोगः, वक्ष्यति इति भविष्यत्काले प्रयोगः खलु. वारं वारं वयं पश्यामः वक्ष्यमाण वक्ष्यमाण इति आगच्छति, तस्य अर्थः कः इति चेत् तत्र वच् धातुतः भविष्यत्कालार्थे शानज् प्रत्ययः अस्तु. इत्युक्ते भविष्यत्काले अग्रे उच्यते कदाचित् अत्यन्ताभावः इति कः इति उच्यते. अग्रे पश्येम. अस्तु, तर्हि एतावता अस्माभिः किं ज्ञातम्? अत्र प्रतियोगितायाः अपि च अनुयोगितायाः वर्णनं जातम् इति ज्ञातमस्ति. कोऽपि प्रश्नः वा अत्र? अस्तु, नूतनतया के के सन्ति? श्रीधर महोदय अधुना श्रूयते.
श्रूयते वा? अहं पुनः आगतवान्.
अस्तु, अनन्तरं विजया भगिनी
श्रूयते वा?
आं भगिनि,
अहं विजया हेतुराजन् अस्मि अत्र.
आमां, श्रूयते भगिनि.
भगिनी, भवत्याः समीपे ईमेल् न आगच्छति अद्यतनवर्गविषये.
भगिनि, सर्वेषां कृते गतम् ईमेल् प्रायः भवत्याः स्पाम् फोल्डर् वा कुत्रचित् गतम् इति भाति. पश्यतु पुनः एकवारम्. अस्तु,
धन्यवादः. धन्यवादः भगिनि.
अस्तु, तर्हि इतः अग्रे गच्छेम. शिवराम महोदय, सामान्याभाववर्णनम् इत्यस्मात् आरभ्य पठति वा?
सामान्य अभाववर्णनम्. इदानीं तस्य सामान्यभावः इति प्रकारः निरूप्यते. प्रतियोगिता भावपदार्थे घटादौ विद्यमानः विरोधः इति निरूपितम्. सा प्रतियोगिता यदा एकजातियुक्तेषु सजातीयेषु यावत्सु भवति तदा सः सामान्य अभावः इति उच्यते. सामान्यस्य अभावः इति यथा श्रुते तु अयं जातेः अभावः स्यात्. कुतः? सामान्यं नाम प्राग् उक्तरीत्या जातिः, तस्य अभावः इति यदि अर्थः स्यात् तदा घटसामान्यभावः इत्यस्य घटस्य यत् सामान्यं घटत्वं तस्य अभावः इत्यर्थः स्यात्, न अयं विवक्षितः. किन्तु सर्वस्य घटस्य अभावः, घटसामान्यं यत् घटत्वं तद्वान् सर्वोऽपि घटः, तस्य अभावः अयं. को अर्थः? सर्वोऽपि घटः अस्य विरोधी, येन केनापि घटेन घटसामान्यभावस्य अपसारणं कर्तुं शक्यम्. अत्र इदं समीचीन उदाहरणं पश्यामः.
अस्तु महोदय, तावत् प्रतिपादयतु किञ्चित्.
अधुना तस्य सामान्य अभावः इति प्रकारः निरूप्यते. प्रतियोगिताभावपदार्थे घटादौ विद्यमानः विरोधः इति निरूपितं. सा प्रतियोगिता यदा एकजातियुक्तेषु सजातीयेषु यावत्सु भवति तदा सा सामान्य अभावः इति उच्यते. प्रतियोगि अभावः एकजातिषु यदि अस्ति घट घटाभावः तथा घटस्य अभावः इति एकजाति
समीचीनं, परन्तु एकजातियुक्तेषु किं भवति तदा?
प्रतियोगिता यदा एकजातिषु भवति तदा सामान्य अभावः इति उच्यते, सः सामान्य अभावः
नाम एकजातियुक्तेषु प्रतियोगिता अस्ति न तु अभावः,
अभावः एकजातियुक्तेषु आम् एकजातियुक्तेषु प्रतियोगिता अस्ति,
अस्तु
घटस्य अभावः घटाभावः प्रतियोगिता
हा सत्यम् एकजातियुक्तेषु इत्युक्ते
एकजातियुक्तेषु एकजातियुक्तेषु
किञ्चित् इतोपि वदति वा महोदय, सजातीयाः अथवा एकजातियुक्ताः इत्युक्ते के?
घट अस्ति घटस्य अभावः अस्ति किन्तु द्वयोः मध्ये घटत्वम् अस्ति, घट इति एका जाति अस्ति,
कुत्र वर्तते घटः इति जातिः?
घटे वर्तते घटत्वं,
घटे वर्तते हा, तर्हि
घटे वर्तते
एकजातियुक्तेषु इत्युक्ते किम्?
एकजातियुक्तेषु नाम घटत्वं घटे अपि अस्ति घट अभावे अपि घटत्वम् अस्ति,
न न न न घटत्वं घटत्वम् इति सामान्यं
सामान्यं
सामान्यं कुत्र कुत्र वर्तते, केषु पदार्थेषु वर्तते
सामान्यः?
द्रव्यगुणकर्मसु
द्रव्यगुणकर्मसु आम्
अभावेषु
सामान्य अभावेषु न वर्तते आम्
अस्तु अभावे यद्य अस्तु सामान्यं यदि अभविष्यत् अभावे तर्हि अभावत्वम् इति अभविष्यत् घटत्वम् इति नास्ति खलु?
तर्हि
अत्र किञ्चित् चिन्तनीयम् एकयुक्तेषु सजातीयेषु यावत् भवति इत्युक्ते यदा घटाभावः इति वदामः घटाभावस्य प्रतियोगी कः अथवा घटाभावस्य प्रतियोगिता कुत्र कुत्र वर्तते?
घटे वर्तते घटस्य भावे वर्तते प्रतियोगिता
घटे वर्तते तावत्
घटे वर्तते हा घटे वर्तते
सः घटः नीलः घटः वा भवतु कृष्णः घटः वा
कोऽपि भवतु घटः घटे
हा परन्तु सर्वेषु घटेषु घटत्वम् अस्ति न वा?
सर्वेषु घटेषु घटत्वम् अस्ति
हा तर्हि अतः एकजातियुक्ताः के तर्हि?
सर्वे घटाः एकजातियुक्ताः
हा घटत्वम् इति एकः
घटत्वम् इति एकः जातिः अस्ति घटत्वं
सत्यम् एका जातिः सर्वेषु वर्तते सर्वेषु घटेषु इत्येव एकजातियुक्तेषु सजातीयेषु इत्युक्ते सर्वेषु घटेषु तादृश अभावः क्षम्यतां तादृशी प्रतियोगिता वर्तते चेत् सः अभावः कः?
सामान्य अभावः इति उच्यते
सम्यक् अस्तु अग्रे पठतु
सामान्यस्य अभावः इति यथा श्रुते तु अयं जातेरभावः स्यात् किञ्चित् न अवगतं सामान्यस्य अभावः इति यथा श्रुते
इत्युक्ते न्यायशास्त्रे न्यायशास्त्रे सामान्यम् इत्युक्ते किम्?
सामान्यं समानानां धर्मः यत् धर्मः अनेकेषु वर्तते सः सामान्यम्
जातिः इति न्यायशास्त्रे
न्यायशास्त्रे
एकं पारिभाषिकपदं खलु परन्तु शृणोतु अत्र सामान्याभावः इत्यनेन मनसि शङ्का उदेति कीदृशी शङ्का उदेति?
जातेः अभावः स्यात् इति
हा समीचीनं जातेः अभावः सामान्यस्य अभावः स्यात् इति उदेति शङ्का किन्तु तथा नास्ति अग्रे पठतु
कुतः सामान्यं नाम प्राग् उक्तरीत्या जातिः अत्र सामान्य इति जातिः अस्ति तस्य अभावः स्यात् इति शङ्का सामान्यं नाम प्राग् उक्तरीत्या जातिः तस्याः अभावः इति यदि अर्थः स्यात् तदा घटसामान्यभावः इत्यस्य घटस्य यत् सामान्यं घटत्वं तस्य अभावः इत्यर्थः स्यात् सामान्यस्य अभावः यदि वयं स्वीकुर्मः चेत् तत्र घटत्वस्य एव अभावं भवितुम् अर्हति
समीचीनं तर्हि घटे यद् सामान्यमस्ति तद् घटत्वम्
घटत्वमेव घटत्वस्य एव तत्र अभावं इति भवितुम् अर्हति तत्र तत्र किन्तु इदं न विवक्षितं न अयं विवक्षितः अत्र.
अस्तु, समीचीनं महोदय. तर्हि सामान्यस्य अथवा जातेः अभावः इति न विवक्षितः, तर्हि किं विवक्षितम् इति अग्रे पठतु. किन्तु
किन्तु सर्वस्य घटस्य अभावः, अत्र घटत्वं वा घटजातिः इति अभावः न, किन्तु सर्वस्य घटस्य अत्र अभावः अस्ति. घटसामान्यं यद् घटत्वं तद्वान् सर्वोऽपि घटः, तस्य अभावो अयं. को अर्थः नाम घटजातिः वा घटसामान्य एतस्य अत्र अभावः नास्ति, किन्तु पूर्णघटस्य अत्र अभावः अस्ति. सम्पूर्णघटस्य
इत्युक्ते अस्य अभावस्य निवारणार्थं जगति यावन्तः घटाः सन्ति तेषु एकं घटम् आनयामश्चेत् पर्याप्तं.
पर्याप्तं कोऽपि घटस्य अस्तित्वं वयं पश्यामः चेत् तत् सः अभावः गच्छति. सः घटः कीदृशः अपि सः घटः भवेत्, तस्य वर्णः कोऽपि भवेत्, तस्य आकारः कोऽपि भवेत्, तस्य अस्तित्वेन सः अभावः गच्छति.
सत्यं. तर्हि घटसामान्यम् इत्युक्ते घटत्वं,
घटत्वं
तद्वान् सर्वोपि खलु.
तद्वान् सर्वोपि घटाः.
हा, वान् वति इति पुनः मतु प्रत्ययः. तद्वान् इत्युक्ते अत्र तद् इति किं?
तद् घटत्वं वान् सर्वोपि घटः.
हा, समीचीनं. नाम यस्मिन् कस्मिन्नपि घटत्वम् अस्ति सः घटः, तस्य आनयनेन अभावोऽयं निवारितः भवति.
अभावस्य निवारणः भवति.
अस्तु, समीचीनम्,
अवगतम् अत्र. तस्य अभावोऽयं को अर्थः? सर्वेऽपि घटः अस्य विरोधी, येन केनापि घटेन घटसामान्यभावस्य अपसारणं कर्तुं शक्यम्. अत्र इदं समीचीन उदाहरणं पश्यामः. एतदेव विवरणं तत्र. कोऽपि घटस्य अस्तित्वं वयं पश्यामः चेत् घट अभावस्य निवारणं तत्र भवति. सः घटः कीदृशः अपि भवति. घटस्य अस्तित्वेन घट अभावस्य निराकरणं भवति.
सम्यक् सम्यक्. अपसरणम् अथवा
अपगमनम्.
अस्तु, इति सामान्याभावः. अत्र सामान्यं सामान्यम् इत्युक्ते जातिः इति मा चिन्तयतु. सामान्यम् इति यथा वदामः लौकिकभाषायां सामान्यं, विशेषं.
सामान्यं नाम सर्वेषु विद्यते यत् सामान्यम्.
सामान्यं घटसामान्यम् न तु घटत्वं.
घटत्वं घटसामान्यं
हा इत्युक्ते सर्वोऽपि घटः इति स्वीकर्तव्यः भवति. अस्तु, कोऽपि प्रश्नः वा अत्र कस्यचित् मनसि? अस्तु, तर्हि अग्रे सरेम. पुनः सामान्याभाववर्णनार्थम् इतोपि एकम् उदाहरणं दीयते अत्र. श्रीधरमहोदय पठति वा?
पठामि, धन्यवादः. कुतश्चित् कारणात् मत्स्यस्य जलस्य च वियोगः जातः, सः मत्स्यस्य त्रस्यति लुटति च. कुतः सः जलम् अपेक्षते, अर्थात् सः जलाभावं पश्यति अनुभवति. कीदृशजला अभावं? जलसामान्य अभावं. कुतः? किमपि जलं मत्स्येन अनुभूयमानं जलाभावं वारयितुं प्रभवति. कश्चित् तस्मै नदीजलं दद्यात्, कश्चित् तडागजलं दद्यात्, कश्चित् कूपजलमपि दद्यात्. यूत् किञ्च जलं तत् तदभावस्य विरोधि. विरोधरूपा प्रतियोगिता नदीजले, तडागजले, कूपजले, अन्यस्मिन् सर्वस्मिन्नपि जले वर्तते. अतः अयं जलसामान्य अभावः. वक्ष्यमाण अभावयोः एवंविध प्रतियोगिता न भवति इति विशेषः.
अस्तु महोदय, आरम्भतः पुनः.
किमपि कारणं कारणस्य मत्स्यः मत्स्यं मत्स्यः जल उपरि आगच्छति, सः जलं न प्राप्तं तेन जलं न प्राप्तं सः मत्स्यस्य तस्य कारणेन जलं न प्राप्तम् अतः मत्स्यः कष्टम् अनुभवति सः त्रस्यति लुटति कष्टम् अनुभवति
सः इत्युक्ते कम्पते क्विवर् अथवा लुटति इत्युक्ते रोल् भवति खलु कष्टम् अनुभवति यथा भवान् उक्तवान्
कष्टमनुभवति सः जलम् इच्छति अतः सलं त्वरा जलम् इच्छति अर्थात् सल अतः सः जलस्य अभावम् अनुभवति जलं न प्राप्तम् अतः जलस्य अभावं पश्यति सः च अनुभवति कीदृशजल अभावं तत् अभावं कीदृशम् इति चिन्तनं जलसामान्य अभावम् एव
महोदय एकं वक्तव्यम् अत्र अभावः इति पुल्लिङ्गपदम् अस्तु परन्तु कीदृश अभावम् इति प्रश्नः कृतः तत्र द्वितीया विभक्ति अस्ति किमर्थम्
कीदृशभावं
इत्युक्ते तस्य हा समीचीनं चिन्तयति इत्यस्य क्रियापदत्वेन क्रियापदस्य कर्मपदत्वेन अत्र अभावः इति अस्ति द्वितीया विभक्त्यां वस्तुतः अभावः इति पुल्लिङ्गपदमस्ति अस्तु पूर्वस्मिन् वाक्ये यद् उक्तमासीत् जलाभावम् अनुभवति तस्य तेन सह भूत्वा प्रश्नः कीदृश अभावम् अनुभवति जलसामान्याभावम् अनुभवति इति
कुतः कुतः कः कारणं किम् इति वार्ता
अत्र वारं वारं कुतः कुतः इति पश्यामः अत्र कुतः इत्युक्ते किमर्थम् इति चिन्तयतु
किमर्थं
सामान्यतः कुतः इति चेत् किं फ्रम् वेर् इति खलु तथा नास्ति अत्र कुतः इत्युक्ते किमर्थम् इति चिन्तयतु
किमर्थं किमपि जलं मत्स्येन अनुभूयमानं जलाभं वारयितुं प्रवति जलं कुतश्चि आनयतु मत्स्यं ददातु तेन कारणेन जलाभवं नश्यति जलाभवं न गच्छति
हा मत्स्यस्य दृष्ट्या जलाभावः वारितः भवति खलु यत्किमपि जलमानयतु पर्याप्तं मत्स्यस्य कृते मत्स्येन अनुभूयमानं जलाभावं वारयितुं यत्किञ्चिदपि जलं पर्याप्तम्
किञ्चित् बहु जलम् आवश्यकं किञ्चित् जलेन
न यत्किञ्चित् इत्युक्ते किञ्चित् इति मात्रा अथवा परिमाणरूपेण न वदामि जलमिति नपुंसकलिङ्गपदं खलु यः कश्चित् यः कोऽपि इति श्रुतं वा पदं सम्वन् एल्स् तथा तदेव यत्किञ्चित् इति वक्तव्यं यतो हि जलमिति नपुंसकलिङ्गपदं यत्किञ्चित् जलम् इत्युक्ते any water tatha some water
kopi tam matsyam nadi jalam dadati kopi tam tadaka jalam dadati kopi koopa jalam ati api dadati yat kin jalam kimabi jalam tat abhavasya nasham karoti virodhi atya यत् किञ्चपि तत् अभावस्य विरोधि अर्थात् किमपि जलं ददातु अभावस्य जल अभावस्य नाशः भवति
तडागः इत्युक्ते
सरोवरः पाण्ड्
लेक् तथा सम्यक्
यत् किञ्चलं तद् अभावस्य विरोधि अर्थः जल अभावस्य नाशः भवति विरोधरूपा प्रतियोगिता नदीजले तडागजले कूपजले अतः विरोधरूपं प्रयुक्तासंज्ञा नदीजले अस्ति तडागजले अस्ति कूपजले अपि अस्ति अन्यस्मिन् किमपि जले अपि अस्ति इति वदति अन्यस्मिन् सर्वस्मिन्नपि सर्वे अपि जले अपि नाशः भवति अतः प्रतियोगिता अस्ति अतः अयं जलसामान्य अभावः अतः जलसामान्य अभावः इति कथयति
हा अत्र सामान्य इत्युक्ते ओर्डिनरि इति चिन्तयतु.
ओ सामान्य
सामान्य इत्युक्ते यथा पूर्वमपि उक्तं घटसामान्यम् इत्युक्ते आर्डिनरि घटः एनि घटः तथा अत्रापि जलसामान्याभावः इत्युक्ते आर्डिनरि इति चिन्तनीयं. सामान्यम् इत्युक्ते अत्र जातिः नास्ति,
पदार्थः न.
सप्तसु पदार्थेषु सामान्यम् इति यद्विद्यते तद् न. अत्र जलसामान्याभावः इत्युक्ते आर्डिनरि जलस्य अभावः.
वक्ष्यमाण अभावयोः, वक्ष्यमाण इति
अग्रे उच्यते,
अग्रे उच्यते, अग्रे वदति एवंविध प्रतियोगिता न भवति, एवंविध प्रतियोगिता न भवति, प्रतियोगिता न इति विशेषः
अत्र. अस्तु, वक्ष्यमाण अभावयोः विषये अनन्तरं पश्येम, किन्तु अत्र प्रतियोगिता कुत्र वर्तते?
अत्र प्रतियोगिता जले वर्तते, सामान्येन सामान्यजले वर्तते.
यत्किञ्चित् जलम् आनयतु तत्र तत्र जलाभावं प्रति प्रतियोगिता वर्तते, तावदेव. जलसामान्याभावं निवारयितुं यत्किमपि जलं पर्याप्तम् इति सामान्याभावस्य उदाहरणं. बुद्धं वा?
बुद्धं, बुद्धं.
वक्ष्यमाण अभावयोः, वक्ष्यमाण इत्युक्ते पुनः भविष्यत्कालसूचकः, तत्र अभावद्वयम् उच्यते, तत्र प्रतियोगिता कीदृशी इति पश्येम. अस्तु, जलसामान्याभावं प्रति या प्रतियोगिता आसीत् एवंविधप्रतियोगिता नास्ति तत्र इति वदन्ति. इत्युक्ते यस्य कस्यापि जलस्य आनयनेन जलाभावः निवारितः खलु. मीनस्य कृते, मत्स्यस्य कृते तु जलाभावः निवारितः एव, सामान्यजलाभावः इति उच्यते अथवा सामान्याभावः. अस्तु
अस्तु,
कोऽपि प्रश्नः वा कस्यचित्?
भगिनि, एकः प्रश्नः अस्ति अत्र, जलसामान्याभावः इत्यत्र केवल जल अभावः इति भवितुम् अर्हति? सामान्य इति शब्दस्य तत्र उपयोगः वा आवश्यकता अस्ति वा?
यथा घटसामान्याभावः इति वदत् उक्तवान् खलु, तद्वदेव महोदय. केवलं
तत्तु ज्ञातं, किन्तु सामान्य इति शब्दस्य तत्र आवश्यकता अस्ति वा? जल अभावः इत्यपि भवितुम् अर्हति न?
जलाभावः इति भवितुम् अर्हति इति सत्यं, किन्तु अत्र विषयः कः? अग्रे गत्वा विशेषाभावः, विशेषविशेषाभावः आगच्छति खलु. तस्य पृष्ठभूमिकारूपेण प्रायः सामान्यम् इति उपयुक्तं, तावदेव. जलाभावः एव यथा भवता उक्तं तत् पर्याप्तं. जलाभावः
किञ्चित् अवगमने क्लेशः भवति. सामान्यं न्यायशास्त्रे सामान्यं स्वीकरणीयं वा व्यवहारे सामान्यं
स्वीकरणीयं?
अस्मिन् भागे क्लेशः.
नवदशे पृष्ठे तु व्यावहारिकरीत्या सामान्यं,
व्यावहारिकसामान्यभावः
सत्यम्. अस्तु, अग्रे सरेम. तर्हि रघुपतिमहोदय पठति वा?
आं महोदय. विशेषाभावः, तत्र द्वितीयाभावः विशेषाभावः, तत्र चातकपक्षिणं सम्प्रदाये उदाहरन्ति. स तु पक्षी वृष्टिकाले वृक्षस्य उच्चतमशाखायाम् उपविश्य शिरः उन्नमय्य मेघं पश्यन् वृष्टिम् अभिवाञ्छति. कुतः? सोऽपि जलाभावं पश्यति. किं तेन दृश्यमानः अभावः नदीजलेन कूपजलेन वा वारयितुं शक्यः? नैव. कश्चित् कूपजलम् आदाय तस्मै यच्छति चेत् न सः तुष्यति. अतः अयं जलविशेष अभावः. जलविशेषस्य अभावः अस्य प्रतियोगिता सर्वस्मिन् जले न वर्तते, किन्तु जलविशेषे. किं तत्? वृष्टिजलम्. अतः तदेव तं भावं नाशयितुं प्रभवति. तस्मात् वृष्टिजलं नास्ति इति अयं जलविशेषभावः. अतः अत्र विशेषाभावस्य वर्णनं कृतं. द्वितीय अभावः अस्ति विशेष अभावः. अत्र सम्प्रदाये चातकपक्षिणं चातकपक्षि तस्य षष्ठी पक्षीयः वा?
अत्र का विभक्ति
चातकपक्षिणम् चातकपक्षिणं द्वितीय षष्ठी
षष्ठी कथं महोदय पश्यतु तत्र कर्तृपदं किं कर्मपदं किं क्रियापदं किम्
तत्र चातकपक्षिणं सम्प्रदाये उदाहरन्ति
एकं वदामि प्रथमतया क्रियापदं किम् इति अभिजानातु क्रियापदं किम्
उदाहरन्ति
अधुना क्रियापदम् अधिकृत्य अस्तु कर्तरिप्रयोगे अस्ति क्रियापदं किल
कर्तरिप्रयोगे अस्ति
उदाहरन्ति बहुवचने अस्ति तर्हि कर्तरिप्रयोगे क्रियापदं कर्तारम् अन्वयति खलु तर्हि कर्तृपदं किमस्ति तत्र
चातकपक्षिणम्
अत्र वस्तुतः कर्तृपदं नास्ति अस्माभिः
ऊहा करणीया वयं शास्त्रकारे उदाहरन्ति
ते शास्त्रकाराः नैयायिकाः यत्किमपि योजयन्तु तत्र अस्तु ते उदाहरन्ति
द्वितीयविभक्ति
किं द्वितीयविभक्ति
द्वितीय चातकपक्षिणं
चातकपक्षिणम् अधुना द्वितीयविभक्ति इति आगच्छति यतो हि कर्मपदमस्ति खलु इति चिन्तनीयं प्रथमतया क्रियापदं दृष्ट्वा क्रियापदस्य किं लक्षणं किम् इति पश्यतु बहुवचने अस्ति चेत् कर्तृपदं बहुवचने स्यात् अपि च लकारः अपि ज्ञायते क्रियापदं दृष्ट्वा अपि च कर्तरिप्रयोगः वा कर्मणि प्रयोगः वा इत्यादिकं क्रियापदेन ज्ञायते तद्दृष्ट्वा अन्यत् सर्वं योजनीयम् इति
तत्र चातकपक्षिणां सम्प्रदाये उदाहरन्ति स तु पक्षी चातकपक्षी वृष्टिकाले वृक्षस्य उपरि तिष्ठन्तः मेघं पश्यति सा पक्षी वृष्टिजलम् अभिवाञ्छति वृष्टिजलस्य अभावम् अनुभवति सः अपि जलाभावः परन्तु तेन तेन अनुभूयमानः अभावः न सामान्यम् अभावः अतः नदीजलेन वा कूपजलेन वा तस्य अभावं नाशयितुं तस्य अभावं वारयितुं न शक्नोति कश्चित् कूपजलम् आदाय तस्मै यच्छति चेत् न सः तुष्यति किमर्थमित्युक्ते सा पक्षी केवलं वृष्टिजलम् एव वाञ्छति अतः एतत् अभावः एषः अभावः विशेषाभावः इति कथ्यते
बहु समीचीनमस्ति महोदय बुद्धम् इति भाति किन्तु किञ्चित् वदामि पदानां विषये वस्तुतः पक्षी इति पुल्लिङ्गपदम् तर्हि सः पश्यति सः वाञ्छति इति वक्तव्यं सः इति पुल्लिङ्गप्रयोगः वाञ्छति इत्युक्ते अवगच्छति खलु इच्छति किं वाञ्छति वृष्टिजलं वाञ्छति उन्नमय इत्युक्ते शिरः उपरि कृत्वा इति तत्र नम् इति इत्यस्य निजन्तप्रयोगः अस्ति तस्मात् ल्यप् इति प्रत्ययः योजितः यतो हि उत् इति उपसर्ग अस्ति इति कृत्वा उत् इति यत्र भवति तत्र उपरि इति अर्थः यथा
उत्तिष्ठति
तथा तर्हि शिरः उपरि कृत्वा उन्नमय मेघं पश्यन् वृष्टिजलमेव अभिवाञ्छति इति अस्तु इति कृत्वा विशेषाभावः महोदय किम्
अहं सः तटाकजलं न पिबति वा
शास्त्रे तादृश उदाहरणमस्ति महोदय
शातकपक्षी इति आङ्ग्लभाषायां किं वदति
आस्प्री इति केनचित् उक्तम्
आस्ट्रिच् सा पक्षी तटाकजलं पिबति अहं दृष्टवान्
अहं तु न जानामि किन्तु अत्र तदर्थम् उक्तं सम्प्रदाये
ఆస్ట్రిచ్ ఇస్ ఎంటైర్లీ డిఫరెంట్ భగిని
భగిని ఆస్ట్రిచ్ ఇది ఏకా లఘు పక్షి అస్తి ఆస్ప్రీ ఇది ప్రాయ తాదృశ పక్షి ఆస్ట్రిచ్ ఇది నా ఉక్తవతీ అహం యః కోపి పక్షి భవతు కింటు పరంపరాగత రీత్యా అథవా సంప్రదాయ శాస్త్రేషు తే వదంతి యత్ అయం పక్షి కేవలం వృష్టిజలం పశ్యతి వృష్టిజలం వాంఛతి
ఓ కల్పన ఏవ హంస పక్షి ఇది
హంసః అపి నాస్తి మహోదయ కించిత్ భవాన్ సంశోధనం కరోతు చాతక ఇది కోపి అపరః ఏవ अस्तु कः पक्षि इति अस्तु अहं न जानामि अत्र परन्तु सम्प्रदायशास्त्रेषु एवम् उदाहरणमस्ति यद् यः कोऽपि
भगिनी अहं किञ्चित् वदामि इच्छामि चातक पक्षी इत्युक्ते एतत् घण्टासमीपे किञ्चित् होल् अस्ति तत्र अतः जलं पिबति चेत् अधः आगच्छति अतः उपरि तस्य घण्ट उन्नम्य वृष्टिजलं पिबति एव एतदेव तस्य शरीर शरीरविशेषं चातकपक्षी अस्ति अधः जलं न पिबति पिबति इत्युक्ते घण्टस्य तस्य होल् इत्युक्ते किं भगिनि
कण्ठे कश्चित् विशेषः अस्ति शरीरावयवविशेषः
अहं चिन्तितवान् वर्षे मासद्वयम् एव वर्षा भवति अतः स जलं न पिबति दशमास जलं न पिबति एव
प्रायः तथा स्यात् महोदय अयं तु नितरां न्यायशास्त्रभिन्नविषयः तर्हि अत्र अस्तु भवतु नाम किन्तु यथा भगिनी उक्तवती तस्य किं कण्ठे कोऽपि विशिष्ट अवयवः स्यात् येन सः केवलं वृष्टिजलं पातुं शक्नोति इति चिन्तयामः अस्तु अधुना तर्हि तस्य कृते अत्र मूलविषयः कः इति चेत् चातकपक्षिणः कृते कीदृशजलम् आवश्यकं केवलं वृष्टिजलम् अस्तु तर्हि सः जलसामान्याभावं न पश्यति यथा मत्स्यः पश्यति तथा नास्ति जलविशेषस्य अभावं पश्यति इति वार्ता खलु श्रीधर् महोदय विशेषजलम् अस्तु अस्तु अग्रे तर्हि रघुपति महोदय अग्रे गच्छतु
चातक यत् यत् अभावम् अभावम् अनुभवति चातकपक्षी तत् विशेष अभावः अस्य प्रतियोगिता सर्वस्मिन् जले न वर्तते किन्तु जलविशेषे किं तत् वृष्टिजलम् अतः तदेव तम् अभावं नाशयितुं प्रभवति वृष्टिजले तस्मात् वृष्टिजलं नास्ति इति अयं जलविशेष अभावः एतत् वयं दृष्टवन्तः चातकपक्षी केवलं जलस्य पूरणेन तस्य इच्छा न तुष्यति केवलं वृष्टिजले एव वृष्टिजलेन एव तस्य अभावं वारयितुं शक्यते अतः एतत् अभावं विशेष अभावः इति न्यायशास्त्रे उदाहरन्ति
समीचीनं तर्हि अस्य जलविशेषाभावस्य प्रतियोगिता कुत्र वर्तते
जलविशेष अभावः वृष्टिजले वर्तते
हा प्रतियोगिता वृष्टिजले वर्तते खलु प्रतियोगिता इत्युक्ते विरोधी अभावं नाशयितुं यः कोऽपि विरोधः अस्ति सः विरोधः कुत्र वर्तते
वृष्टिजले
हा वृष्टिजले वर्तते समीचीनम् अस्तु अधुना तत्र अधस्तनचित्रं विवृणोतु किञ्चित्.
अत्र अभावः विशेषभावः किम् इति वदनेन विशेषभावः विष्टिजलनिष्ठप्रतियोगितानिरूपित अनियो अनियोगिताश्रयः अभावः विशेषभावः.
वृष्टिजलाभावः इति चिन्तयतु.
विष्टिजलाभावः
यः अभावः केवलं वृष्टिजलेन वारयितुं
शक्यते.
समीचीनम्. अस्तु तर्हि रघुपतिमहोदय वदतु, अधुना इमम् अभावं वारयितुं तडागजलम् आनयामिश्चेत् अभावः वारितः भवति वा?
न भवति, न भवति. केवलं वृष्टिजल एव तस्य अभावं, वृष्टिजल एव अभावं न, विशेष अभावं वारयितुं शक्यते.
शक्नोति. अस्तु समीचीनं.
शक्नोति.
हा, परन्तु मत्स्यस्य कृते सामान्याभावः अस्ति खलु?
मत्स्यस्य कृते सामान्य अभावः किमपि जलम् आनेतव्या चेत् तस्य अभावं वारयितुं वयं शक्नुमः.
वृष्टिजलम् आनयामि चेत्?
वृष्टिजलम् आनयामि चेत् अपि शक्नु वारयितुं वयं शक्नुमः.
समीचीनं. तर्हि सामान्याभावस्य प्रतियोगिता वृष्टिजले अस्ति वा न वा?
सामान्यभावस्य प्रतियोगिता वृष्टिजले अस्ति.
अस्ति खलु. प्रतियोगिता इत्युक्ते अभावस्य विरोधः. वृष्टिजलं विरोधि.
अस्ति अस्ति अस्ति.
हा, तर्हि सामान्याभावस्य विरोधः अथवा प्रतियोगिता सर्वत्र सर्वेषु जलेषु
सर्वेषु जलेषु अस्ति,
परन्तु विपरीतदिशि वैस्वर्सा नास्ति.
वैस्वर्सा नास्ति
इति मुख्यः विचारः. जलविशेषाभावस्य उदाहरणमस्ति वृष्टिजलाभावः इति. बुद्धं?
बुद्धम्.
अस्तु सम्यक्. अग्रे सर्वे हा समीचीनं. विजया भगिनी अग्रे पठति वा?
आं पठामि भगिनि. विशेष अभाववर्णनं इतोपि अन्यं विशेष अभावं सम्प्रदाये निरूपयन्ति. स च स्वातिनक्षत्रीय वृष्टिजल अभावः. तथा हि सूर्यः प्रायः चतुर्दश वा पञ्चदश वा दिनानि एकैकस्मिन् नक्षत्रे तिष्ठति. तत्र मृगनक्षत्रमारभ्य अष्टनक्षत्रपर्यन्तं नवसु नक्षत्रेषु सूर्ये सति सार्धमासचतुष्टयं चतुरा प्रचुरा वृष्टिः भवति. ततः चित्रस्वातिनक्षत्रयोः किञ्चित् ऊना वृष्टिः भवति. अयं नक्षत्रकालः प्रायः कार्तिकमासी भवति. यदा स्वातिनक्षत्रीया वृष्टिः आसन्ना भवति तदा सागरे गभीरे जले स्थिति शुक्तिका जलोपरि सम्मेत्य स्वातिनक्षत्रस्य वृष्टिजलं कामयते. भगिनी श्रूयते वा?
हा हा श्रूयते भगिनी, आरम्भतः पुनः कृपया.
इतोपि अन्यं विशेष अभावं सम्प्रदाये निरूपयन्ति. पूर्वं वयं दृष्टवन्तः गतः अनन्तरं विशेष अभावः चातकपक्षी लिखितम् इति पूर्वं वयं दृष्टवन्तः. इदानीं नक्षत्रविषये स्वातिनक्षत्रं वृष्टिजल अभावः इति वयं स्वीकुर्मः. अत्र स्वातिनक्षत्रे वृष्टिजल अभावः कीदृशं जलम् अभाव आवश्यकम् इत्युक्ते तत्र स्वातिनक्षत्रीये वृष्टिजलमेव अधिकमहत्त्वमस्ति. अतः वृष्टिजलं तत्र अभाव वृष्टिजलं तत्र वृष्टिजलम् अभावः तत्र स्वातिनक्षत्रीये तर्हि सूर्यप्रायः चतुर्दश वा पञ्चदश वा दिनानि एकैकस्मिन् नक्षत्रे तिष्ठति. स्वातिनक्षत्रे वा अन्यनक्षत्रे वा सूर्य चतुर्दशदिनानि वा पञ्चदशदिनानि वा तिष्ठन्ति तत्र. मृगनक्षत्रम् आरभ्य अष्टनक्षत्रपर्यन्तम् एतत् मध्ये नवसु नक्षत्रेषु सूर्य सति एतत् नवनक्षत्रेषु सूर्यः तत्र तिष्ठति. सार्धमासचतुष्टयं प्रचुरा वृष्टिः भवति. प्रचुरा इत्युक्ते
नाम सूर्यः यावत् पर्यन्तं मृगनक्षत्र हस्तनक्षत्रपर्यन्तं भवति तत्र प्रचुरा वृष्टिः भवति, इत्युक्ते अधिका वृष्टिः भवति. अस्तु, सार्धमासचतुष्टयम् इत्युक्ते 4.5 months, मासचतुष्टयं तत्र भवति तथा. परन्तु किम् अग्रे पठतु ततः.
चित्रस्वातिनक्षत्रयोः किञ्चित् ऊनः वृष्टिः एतत् मासद्वयोः मासमध्ये वृष्टिः किञ्चित् ऊनम् इत्युक्ते तत्र किञ्चित् एव अस्ति. अयं नक्षत्रकालः प्रायः कीर्तिमासी भवति. एतत् मासः कार्तिकमासः कार्तिकमासः भवति. तदा स्वातिनक्षत्रीया वृष्टिः आसन्ना भवति, अधिकं भवति वा?
आसन्ना भवति, आसन्ना इत्युक्ते आरब्धा भवति इति चिन्तयतु. यदा आगच्छति, यदा स्वातिनक्षत्रीयवृष्टिः आगता आसन्ना भवति, तदा किं भवति? तदा
सागरे गभीरे जले बहु अन्ते एतत् जलं स्थित्वा सुप्तिका इत्युक्ते कोल् सुप्तिका जल उपरि सम्मीत्य स्वातिनक्षत्रस्य वृष्टिजलं कामयते. तत्र सुप्तिका जल उपरि आगत्य स्वातिनक्षत्रसमये वृष्टिजलं कामयति इत्युक्ते वृष्टिजलं कामयति इति अनन्तरमेव सुप्तिका वयं प्राप्नुमः. एतत् अन्ते बहु अन्ते गभीरे अस्ति जलस्थित्वा सुप्ति उपरि आगत्य स्वातिनक्षत्रस्य जलं वृष्टिजलं पीत्वा अनन्तरमेव सुप्तिका वयं प्राप्नुमः.
सुप्तिका इत्युक्ते ओयिस्टर् इति भगिनि, पोल् ओयिस्टर् इति प्राणी अस्ति सुप्तिका. यथा चातकपक्षी, तद्वत् सुप्तिका इति एकः प्राणिः, प्राणी अस्ति सुप्तिका. हा, यथा शातकपक्षी किं वृष्टिजलं वाञ्छति, तद्वत् सुप्तिका वाञ्छति. सुप्तिका किं वाञ्छति अथवा किं कामयते?
स्वातिनक्षत्रस्य वृष्टिजलम् इच्छति.
केवलं वृष्टिजलं न, स्वातिनक्षत्रस्य वृष्टिजलमेव इच्छति सुप्तिका. इत्युक्ते ओयिस्टर् इति एकः प्राणिः, प्राणी अस्ति एकः. अस्तु, भवती यद् उक्तवती, यद् भवती उक्तवती समीचीनमेव. स्वातिनक्षत्रीयवृष्टिजलं पीत्वा पर्ल् ददाति, निर्माणं करोति इति. मुक्तिका इति पर्ल् अस्ति, तं ददाति सुप्तिका. अस्तु, तर्हि इतोपि किञ्चित् विशिष्टं जातं. प्रथमं जलं, तदनन्तरं किं? वृष्टिजलम्. अस्तु, अधुना कीदृशं जलम्?
वृष्टिजलमेव, सामान्यजलं.
न, भवती किं पठितवती अधुना? कीदृशं वृष्टिजलं?
विशेषजलम् इति तत्र स्वातिनक्षत्रस्य वृष्टिजलं विशेषः एव तत्र.
प्रथमं जलम् मान्यं, जलमिति सामान्यं, विशेषः इति वृष्टिजलम्. अधुना विशेषविशेष हा विशेषस्य विशेषः अस्ति स्वातिनक्षत्रीयवृष्टिजलम् इति. बुद्धम्? समीचीनं. तर्हि अधुना विशेषविशेषाभाववर्णनमिति अस्ति खलु, तदर्थम् उदाहरणमस्ति स्वातिनक्षत्रीयवृष्टिजलम् इति. अस्तु,
अस्तु,
हा, समीचीनम्. अग्रे सरेम तर्हि वेणुगोपाल महोदय अग्रे
प्रश्नः. समुद्रजलं समुद्र वृष्टिजलं समुद्रजलेन मिश्रणं भवति, अतः शुक्तिका वृष्टिजलं पृथक् करोति वा?
महोदय पुनः वदामि, न्यायशास्त्रस्य विषयः नास्ति. अस्तु, अहं तु न जानामि. डिस्कवरी चानल् विषयः अयं तु, अहं नितरां न जानामि. परन्तु एवं चिन्तयन्तु यत् उदाहरणत्वेन नैयायिकाः वक्तुं किमपि वक्तुम् इच्छन्ति खलु. चातकपक्षिणः उदाहरणं दत्त्वा वृष्टिजलम् इति वैशिष्ट्यम् आनीतम्. अस्तु, शुक्तिकायाः दत्त्वा स्वातिनक्षत्रीय वृष्टिजलं, सम्प्रदाये तथा अस्ति वस्तुतः.
एतत् एतत् सत्यमेव भगिनि. एतत् शुक्तिका उपरि आगत्य स्वातिनक्षत्रसमये वृष्टिजलम् आगच्छति खलु, एतत् पिबति. एतत् सत्यमेव.
समुद्रजलेन मिश्रणं भवति.
अस्तु महोदय, भवतु नाम मिश्रणं, परन्तु स्वातिनक्षत्रीयवृष्टिजलमेव इच्छति इति विशेषविशेषस्य उदाहरणम् इति चिन्तयतु. अस्तु, तर्हि तस्य डीटेल्स् अहं तु न जानामि. हस्तनक्षत्र मृगनक्षत्र ज्योतिष्यविचारः, स्वातिनक्षत्रीय इत्यादिकम् अन्यविचारः. न्यायशास्त्रे अस्माकम् उदाहरणं किं? विशेषाभावः, विशेषविशेषाभावः, तावदेव. अस्तु
अस्तु.
भगिनि, कालिदासस्य एक अहम् इच्छामि
विषयं वदति.
कालिदासस्य मेघदूतम् इति काव्यमस्ति. तत्र एतत् जातकपक्षी सुप्तिका एतत् मध्ये कारणं तत्र अस्ति, किमर्थम् आगच्छति. एतत् सर्वं कालिदासेन सम्यक् उक्तं तत्र.
हा अस्तु, समीचीनं. तदर्थमेव परम्परारीत्या, हा परम्परागतरीत्या, सम्प्रदाये परम्परा इति वदन्ति चेत् एवमेव भवति श्रीधर् महोदय. कुतश्चित् हा कुतश्चित् काव्यात् वा अथवा सम्प्रदायरीत्या या कापि कथा भवति, तस्यां वा यत्किञ्चित् अस्ति, तत् स्वीकृत्य उदाहरणं ददति नैयायिकाः इति, तावदेव.
अंशः अपि अस्ति वा? सः दुग्धं जलं पृथक् करोति इति श्रुतवान्.
सत्यं सत्यं, न जाने, तदपि न जानामि. न्यायविषयः नास्ति. अस्तु, विजया भगिनी जानीयात्, अहं तु न जानामि. प्रायः काव्येषु कुत्रचित् अथवा सुभाषितेषु अपि अस्ति खलु हंस क्षीरन्याय इति न्यायः अस्ति. तत्र कुत्र कुतश्चिदपि सम्प्रदाये यत्किमपि उदाहरणं ते प्राप्नुवन्ति, तद् दत्त्वा किञ्चित् उदाहरणं ददति इति. अस्तु
अस्तु
अस्तु, सम्यक्. अग्रे सरेम मेहुल् महोदय, कृपया.
आं महोदय. अर्थात् स्वातिनक्षत्रीयवृष्टिजलाभावं पश्यतु. न्यायाभावः कूपजलेन नदीजलेन वा शक्यः निवारयितुं, नापि येन केनचित् वृष्टिजलेन. चित्रानक्षत्रीयवृष्टिजलसत्त्वेपि न हि शुक्तिः तत् गृह्णाति, केवलं स्वातिनक्षत्रीयवृष्टिजलं वाञ्छति. अतः अस्य अभावस्य प्रतियोगी न जलसामान्यं, नापि वृष्टिजलसामान्यम्, अपि तु स्वातिनक्षत्रीयवृष्टिजलमेव. जलविशेषरूपवृष्टिजलस्यापि अयं विशेषः यत् स्वातिनक्षत्रीयवृष्टिजलं तस्य अयम् अभावः, अतः विशेषविशेषाभावः इति उच्यते. अवमेव सर्वत्र पुष्पसामान्याभावः, नीलपुष्पाभावः, शरत्कालिकनीलपुष्पाभावः इत्यादयः सामान्याभावः, विशेषाभावः, विशेषविशेषाभावः उदाहर्तव्यः. अर्थात् स्वातिनक्षत्रीयवृष्टिजलाभावं पश्यति. अत्र वयं स्वातिनक्षत्रीयभाव वृष्टिजलाभावस्य उदाहरणं दृष्टवान्. नायं भावः कूपजलेन नदीजलेन वा शक्यः निवारयितुम्, एतत् अभावः अन्य कोऽपि जलेन न निवारयितुं शक्यः, नापि येन केनचित् वृष्टिजलेन. अपि च केनचित् अन्यत्र वृष्टिजलेन अपि तस्य निवारयितुं निवारणं न कर्तुं शक्नुमः. पित्रानक्षत्रीयवृष्टिजलसत्त्वेपि न हि शुक्तिः तत् गृह्णाति. शुक्तितः अन्य कोऽपि जलं न न स्वीकृति सा पित्रानक्षत्रीयवृष्टि अपि न गृह्णाति, केवलं स्वातिनक्षत्रीयवृष्टिजलं वाञ्छति. अतः अस्य अभावस्य प्रतियोगी न जलसामान्यं. शुक्तिकः केवलं स्वातिनक्षत्रीयवृष्टिजलम् इच्छति, अतः तस्य तस्य प्रतियोगी अथवा जलसामान्यं नास्ति, नापि वृष्टिजलसामान्यम्. अत्र किञ्चिदपि अधिकविशेषः सामान्यमस्ति, विशेष अभावः अस्ति, अपि तु स्वातिनक्षत्रीयवृष्टिजलमेव. इत्युक्ते सा प्रतियोगी शुक्तिका मध्ये यः प्रतियोगिता अस्ति तत् जलसामान्यं नास्ति, वृष्टिजलसामान्यमपि नास्ति, अपि तु स्वातिनक्षत्रीयवृष्टिजलमेव.
हा अस्तु महोदय, महोदय अत्र एकं नूतनं पदमागतं, प्रति इति खलु
शुक्ति. आम् आम्
प्रतियोगी इति पश्यति वा?
आम् आम् प्रतियोगी.
हा एतावत् पर्यन्तं प्रतियोगिता इति व्यवहारः जायमानः आसीत् किल, वृष्टिजले प्रतियोगिता इति सप्तमी विभक्तिप्रयोगः. अधुना किम् उक्तम् अस्मिन् वाक्ये? अतः अस्य अभावस्य प्रतियोगी इति उक्तम्.
प्रतियोगी इत्युक्ते प्रतियोगिता यत्र कुत्रापि अस्ति तस्य नाम प्रतियोगी.
बहु समीचीनं, प्रतियोगी इति अस्ति ह्रस्व इकारः, यतोहि जलसामान्यम् इति नपुंसकलिङ्गपदम्, तदर्थं प्रतियोगी इति ह्रस्व इकारः. यदि घटः इति पुल्लिङ्गपदम् अभविष्यत् तर्हि प्रतियोगी इति दीर्घ ईकारः. इनि इति प्रत्ययः, यथा गुणि, यस्मिन् गुणः सः गुणि, तद्वद् यस्मिन् प्रतियोगिता सः प्रतियोगी. अस्तु, एवम् अनुयोगी इति, यस्मिन् अनुयोगिता सः अनुयोगी इति आगच्छति. अस्तु समीचीनं, तर्हि अस्य अभावस्य प्रतियोगी कः?
शुक्तिकः.
प्रतियोगिता कुत्र वर्तते?
प्रतियोगिता प्रतियोगिता वृष्टिजलं चित्त स्वातिनक्षत्रीयवृष्टिजलं.
स्वातिनक्षत्रीयवृष्टिजले प्रतियोगिता वर्तते, अतः प्रतियोगी किम्?
स्वातिनक्षत्रीयवृष्टि
वृष्टिजलं. समीचीनं,
वृष्टिजलं.
जलम् इति नपुंसकलिङ्गम् अथवा प्रतियोगी इति ह्रस्वैकारः, स्वातिनक्षत्रीयवृष्टिजलं प्रतियोगी. कस्य अभावस्य? स्वातिनक्षत्रीयवृष्टिजलस्य इति वदामः. अस्तु अग्रे गच्छतु महोदय.
जलविशेषरूपवृष्टिजलस्यापि अयं विशेषः. अत्र किञ्चिदपि विशेषः अस्ति, जलविशेष रूपवृष्टि अस्ति, परन्तु वृष्टिजलं तस्यापि अत्र एकं विशेषः अस्ति. स्वातिनक्षत्रीयवृष्टिजलं तस्य अयम् अभावः. अत्र स्वातिनक्षत्रीयवृष्टिजलमिति किञ्चिदपि विशेषः इच्छति, अतः विशेषविशेषाभावः इति अत्र उच्यते. एवमेव
अस्तु अस्तु, तर्हि सामान्यजलाभावः, तदनन्तरं विशेषजलाभावः कस्य अभावः आसीत्?
विशेषजलाभावः वृष्टिजल वृष्टिजलं
वृष्टिजलाभावः. अधुना विशेषविशेषाभावः कस्य अभावः?
स्वातिनक्षत्रीयवृष्टिजलाभावः.
समीचीनं महोदय, अस्तु अग्रे.
एवमेव इत्युक्ते यथा सर्वत्र पुष्पसामान्याभावः अस्ति, यदि वयं सर्वे सर्वाणि पुष्पाणि पश्यन्ति चेत् तत्र एकः सामान्याभावः अस्ति, परन्तु यदि वयम् एकं नीलपुष्प यदि स्वीकुर्मः चेत् तत्र नीलपुष्पलाभः आगच्छति. अनन्तरं तत्र अपि विशेष तत् पुष्पसामान्यभावः अस्ति, परन्तु विशेषभावः नीलपुष्पभावः अस्ति. अनन्तरं विशेषविशेषाभावस्य एकस्मिन् अन्यत् उदाहरणं स्वीकुर्मः चेत् शरदकालिकनीलपुष्प, अत्र एकस्मिन् विशेषः पुष्पः अस्ति, तस्य अभावः विशेषविशेषाभावः अस्ति इत्यादयः. यदि वयं दृष्टवन्तः सामान्यभावः अस्ति, अनन्तरम् एकं विशेषाभावः अस्ति, अनन्तरं विशेषविशेषाभावः इति अपि अस्ति. एतत् सर्वे उदाहरणं वयं दृष्टवन्तः.
इतोपि एकम् उदाहरणं पुष्पसामान्याभावः, यत्र किमपि पुष्पं नास्ति तादृश अभावः नीलपुष्पाभावः इत्युक्ते नीलपुष्पं नास्ति तादृश अभावः. पुनः विशेषस्यापि विशेषः, नीलम् इति प्रथमतया विशेषः, तस्यापि विशेषः अस्ति शरत्कालिकनीलपुष्पाभावः इति. एवमेव इतोपि एकम् उदाहरणं दत्तवन्तः. अस्तु तर्हि महोदय वदतु, स्वातिनक्षत्रीयजलाभावे, क्षम्यतां स्वातिनक्षत्रीयजले सामान्यजलाभावस्य प्रतियोगिता अस्ति वा?
स्वातिनक्षत्रीयवृष्टिजलाभावे
वृष्टिजले
सामान्यजलाभावः अपि अस्ति.
हा, स्वातिनक्षत्रीयवृष्टिजले, तर्हि कीदृशी प्रतियोगिता अस्ति इति कोऽपि पृच्छति चेत् उत्तरं किं भवेत्?
स्वातिनक्षत्रीयजले जलनिष्ठप्रतियोगिता किमस्ति इत्युक्ते स्वातिनक्षत्रीयजलाभावनिष्ठ अनियोगिता निरूपित.
हा, इति सर्वं सत्यं. सरलरीत्या अहं पृष्टवती यत् स्वातिनक्षत्रीयवृष्टिजले कीदृशी प्रतियोगिता अस्ति इति. तादृशी प्रतियोगिता या जलसामान्याभावं निवारयति खलु? तत् सत्यमस्ति न वा?
आं, सत्यमस्ति.
सत्यमेव खलु? वृष्टिजलं निवारयति वा स्वातिनक्षत्रीयवृष्टिजलाभावं निवारयति वा स्वातिनक्षत्रीयवृष्टिजलम्?
आं, निवारयति.
निवारयति, सम्यक्. तर्हि स्वातिनक्षत्रीयवृष्टिजले या प्रतियोगिता अस्ति सा प्रतियोगिता सामान्याभावम् अपि च विशेषाभावति इति वार्ता. किन्तु विशेषविशेषाभावस्य निवारणार्थं किम् आवश्यकम्?
स्वातिनक्षत्रीय वृष्टिजलम् आवश्यकं.
तदेव आवश्यकं, केवलं स्वातिनक्षत्रीय वृष्टिजलम् इति आवश्यकं. बुद्धम्? हा, वस्तुतः त्रिप्रकारकाः अभावाः अत्र प्रदर्शितः, परन्तु अग्रे गत्वा किमयत् अभावः चतुर्विधः इति. एतत् सर्वं किमर्थं प्रदर्शितम् इति चेत् अग्रिमविषयः अस्ति अवच्छेदक अवच्छेद्यभावः. तर्हि अस्माकं मनसि यदा यथा वयम् अभ्यासं कृतवन्तः वृष्टिजलं सामान्यवृष्टिजलं निवारयति, तर्हि वृष्टिजले कीदृशी प्रतियोगिता अस्ति इति वक्तव्यं चेत् वृष्टिजलनिष्ठप्रतियोगिता निरूपित अनुयोगिता आश्रयः अभावः इति वदामः. स्वातिनक्षत्रीयवृष्टिजले कीदृशी अस्ति इति चेत् तदर्थम् इतोपि एकं वैशिष्ट्यम् आगतं खलु? तद् स्वीकृत्य वैशिष्ट्यं स्वीकृत्य प्रतियोगिता अनुयोगिता इत्यादीनां भवति. अग्रे गत्वा वयं पश्यामः अवच्छेदकत्वपदार्थवर्णनम् इति. वैशिष्ट्यं स्वीकृत्य स्वातिनक्षत्रीयवृष्टिजले यः धर्मः अस्ति, स्वातिनक्षत्रीयवृष्टिजलत्वम् इति, तं स्वीकृत्य प्रतियोगितावर्णनम् अभाववर्णनम् इत्यादिकं कुर्मः. अस्तु, तदर्थम् उदाहरणत्रयमपि दत्तमस्ति. उदं वा? अस्तु, समीचीनम्. अग्रे श्रीधरमहोदय पठति वा?
पठामि. अवच्छेदकत्वपदार्थवर्णनं त्रयाणामेषां जलमेव प्रतियोगी, तथापि जलनिष्ठप्रतियोगितानां परस्परं भेदः अनुभविकः आनुभविकः अन्यः खलु सर्वेषु जलेषु विद्यमानः सामान्याभावस्य विरोधः ततः अन्य एव वृष्टिजले विद्यमानः विरोधः तस्य च सम्यक् ज्ञानार्थम् अत्रैव च अवच्छेद्य वच्छेदकभावमपि पश्यामः पूर्वे दृष्टवन्तः त्रय उदाहरणत्रयं दृष्ट वयं दृष्टवन्तः जलम् एव प्रतियोगी त्रिषु जलं प्रतियोगी जलमेव प्रतियोगी तथापि जलनिष्ठप्रतियोगितानां परस्परं तथापि भेदः अस्ति जलनिष्ठप्रतियोगी मध्ये परस्परं भिन्नः भिन्नम् भिन्नं भेदः अनुभवति अन्यः खलु सर्वेषु जलेषु विद्यमानः सामान्य अभावस्य विरोधः अन्यः खलु सर्वेषु जलेषु विद्यमानः सर्वेषु जलेषु सामान्य अभावस्य विरोधः प्रतियोगी सर्वसामान्यजलविरोधः अस्ति वयं दृष्टवन्तः ततः अन्य एव वृष्टिजले विद्यमानः विरोधः अन्य एव
इत्युक्ते सामान्याभावस्य विरोधः कुत्र अस्ति सर्वेषु जलेषु
अस्ति सामान्याभावः विरोधः
विरोधस्य नामकरणं किं
प्रतियोगिता
तर्हि सर्वेषु जलेषु सामान्याभावस्य किम् अस्ति प्रतियोगिता अस्ति वृष्टिजले अपि विरोधः अस्ति न वा
वृष्टिजले अपि अस्ति
तस्यापि नाम किम्
प्रतियोगिता
मनसि भवेत् यत् तस्य विरोधस्य नाम प्रतियोगिता अपि च जलं स्वयं प्रतियोगी यथा मेहुलमहोदय उक्तवान् अस्मिन् प्रतियोगिता अस्ति इति कृत्वा जलं प्रतियोगी तत्र आरम्भे किम् उक्तमासीत् त्रयाणाम् एषां जलमेव प्रतियोगी इति उक्तं खलु महोदय त्रयाणां
त्रयाणाम् अतः वृष्टि सामान्यजलं वृष्टिजलं स्वातिनक्षत्रीयवृष्टिजलं
हा वस्तुतः त्रयाणाम् इति वृष्टिजलम् इत्यस्य न अभावस्य सूचकः जलं प्रतियोगी कं प्रति प्रतियोगी अभावं प्रति खलु प्रतियोगी भवति त्रयाणाम् अभावानां त्रयाणाम् अभावानाम् इत्युक्ते त्रयः अभावाः ये परिशीलिताः तेषां जलमेव किं
जलमेव प्रतियोगी
इत्युक्ते तस्मिन् प्रतियोगिता विरोधः अस्ति परन्तु वयम् अनुभवेन ज्ञातुं शक्नुमः यत् जलनिष्ठप्रतियोगिता भिन्ना वृष्टिजलनिष्ठप्रतियोगिता भिन्ना स्वातिक्षत्रियवृष्टिजलनिष्ठप्रतियोगिता भिन्ना इति अनुभवेन जानीमः किल यतोहि अधुनैव चर्चितं यद् वृष्टिजलाभावं केवलं वृष्टिजलम् एव निवारयति इति किल तर्हि तत्र या प्रतियोगिता वर्तते सा भिन्ना भवेत् सामान्यजले या प्रतियोगिता भवति सापि भिन्ना भवेत् इति आनुभविकम् इति वार्ता परन्तु कथं जानीमः इति विषयः अधुना आगच्छति तदर्थमेव अन्ते उक्तं तस्य सम्यक् ज्ञानं अवच्छेद्य अवच्छेदकभावं पश्यामः इति बुद्धं सम्यक् अवच्छेदक अवच्छेद्यभावं किं तस्य विवरणं दातुमेव विशेषाभावः विशेषाविशेषाभावः सामान्याभावः इति वयम् अधुना परिशीलितवन्तः अधुना तर्हि पश्येम अवच्छेद्यावच्छेदकभावः इत्युक्ते कः इति पश्येम अस्तु सम्यक् अग्रे शिवरां महोदय पठति वा
आं पठामि वा
पठतु महोदय शिवराम महोदय.
कश्चित् क्षीरविक्रेता क्षीरम् आदाय आगतः. तस्मात् द्रोणपञ्चकपरिमितं क्षीरं क्रेतव्यम् अस्ति. कीदृशं पात्रं वयं नयामः? न द्रोणदशकमानकं कुतः अतिवर्तेत? न अपि द्रोणद्वयमानकं कुतः न्यूनी भवेत्? किन्तु द्रोणपञ्चकपरिमितं क्षीरं स्थापयितुं यत् पात्रं पर्याप्तं भवेत् तदेव स्वीकुर्मः. ततः किं कुर्मः? विक्रेतुं समीपं गत्वा तस्य पुरतः पात्रं स्थापयामः. विक्रेता च पात्रे तस्मिन् क्षीरं स्रावयति. अत्र अवच्छेद्य अवच्छेदकभावनिरूपणार्थम् उदाहरणं दत्तं तत्र अस्ति. एकः कोऽपि क्षीरविक्रेतः अस्ति, सः क्षीरं स्वीकृत्य गृहे आगच्छति. तस्मात् क्षीरविक्रेतातः वयं द्रोणपञ्चकपरिमितं क्षीरं वयं क्रेतुम् इच्छामः. यदि द्रोणपञ्चकपरिमितं क्षीरं यदि आवश्यकं तर्हि द्रोणपञ्चकपरिमित स्थातुं यत् पात्रम् आवश्यकं तदेव वयं स्वीकुर्मः. द्रोणदशकमानकं पात्रं वयं स्वीकुर्मः चेत् तत् किञ्चित् अधिकं भवति. द्रोणद्वयमानक मानकं पात्रं वयं स्वीकुर्मः चेत् तत् पात्रं न्यूनी भवति. द्रोणपञ्चकपरिमितं क्षीरं तत्र स्थातुं न शक्यते. तदर्थं वयं केवलं द्रोणपञ्चकपरिमितं पात्रम् एव तस्य क्षीरविक्रेतायाः समीपे पुरतः वयं स्थापयामः. तदा सः विक्रेता तत् क्षीरं पात्रे स्थापयति.
हा समीचीनं, सुलभमेव अस्ति इति भाति सर्वे.
अत्र अतिवर्तेत इति
अतिवर्तेत नाम अधिकं भवति. अधिकं भवति, किञ्चित् बृहत् भवति.
भवतमनु अवगतं, बट् अतिवर्तेत ओके
अधिकं भवति चेत् समस्या नास्ति, समस्या कोऽपि नास्ति.
नितरां सत्यं, समस्या तु नास्ति, परन्तु अस्तु किमर्थं पात्रद्वयं सूचितम् इति अग्रे आगच्छति श्रीधर् महोदय, अग्रे पश्येम.
द्रोणं पञ्चकम् इति
अस्माकं कृते द्रोणपञ्चकमेव आवश्यकम् इति सत्यमेव.
पञ्चकं मीन्स् पञ्च लिटर् वा?
हा, पञ्च लिटर् इति चिन्तयतु. द्रोणपञ्चकपरिमितम् इति द्रोण इति जानाति खलु? द्रोण इत्युक्ते पात्रं, पात्रम् अथवा ट्रफ् इति. तथा कस्यचिदपि विक्रेता यः अस्ति तस्य कृते द्रोणपञ्चकं परिमितं पर्याप्तम् अस्ति. परन्तु अत्र पात्रद्वयस्य उल्लेखः कृतः, द्रोणदशकपरिमितम् एकं पात्रम् अपि च द्रोणद्वयमानकम् एकं पात्रम्. अस्तु तर्हि पश्येम किमर्थं तथा कृतवन्तः.
उपरि मत्स्य कृते जलम् आवश्यकं, चातकस्य कृते जलम् आवश्यकं, तथा शुक्तिकायाः कृते अपि जलं तत्र आवश्यकं. किन्तु तत्र जलमध्ये भेदः कः अस्ति तद् निरूपणार्थम् एतद् उदाहरणमस्ति.
हा समीचीनं, हा एतद् उदाहरणं तदर्थमेव. श्रीधर् महोदय, भवान् यद् पठितवान् प्रथमपरिच्छेदे परस्परभेदः अनुभविकः इति पठितवान् खलु?
आम् आम्.
हा, तस्य किञ्चित् विवरणं दातव्यं. यद्यपि जलं जलमेव इति दृश्यते, तथापि प्रतियोगितानां मध्ये भेदः अस्ति. अत्रापि तथैव क्षीरं क्षीरमेव खलु? क्षीरं पश्यामश्चेत् श्वेतवर्णीयं किञ्चन लिक्विड् अस्ति इति जानीमः, परन्तु भेदः तु अस्ति. भेदः कथं भवति इति परिच्छेदः तत्र पठेम किञ्चित्. अस्तु वेणुगोपालमहोदय.
भगिनी,
हा वदतु भगिनी.
भवत्याः वर्गे भवत्या एव एतत् विषये उक्तवती, बहु सम्यक् आसीत् भवत्याः वर्गे. पूर्वं वर्गः अस्ति खलु, अहं श्रुतवती.
अस्तु अस्तु,
धन्यवादः.
समीचीनं समीचीनं भगिनि. वेणुगोपाल् महोदय अग्रे गच्छतु तर्हि.
कुत्र अस्ति इदानीं किं तेन योग्येन पात्रेण कृतं द्रोणपात्रपञ्चकं परिमितं क्षीरं बहु बृहत् पात्र गतक्षीरात् पृथक् कृतं पात्रस्थं क्षीरं दृष्ट्वा एकमागच्छामः इदं क्षीरम् अन्यस्यात् क्षीरात् भिन्नं केन एवमस्माभिः अवगतं पात्रेण तदि पृथक् करोति इदं पृथक् करोति इदं क्षीरम् अन्यात् इदम् इति बोधयति इति पात्रं क्षीरस्य अवच्छेदकं क्षीरं च अवच्छेद्यं भवति क्षीरे अवच्छेद्यता पात्रे च अवच्छेदकता तयोः निरूप्यनिरूपकभावः इदानीं किं तेन योग्येन पात्रेण कृतं
यथा यथा महोदय पृष्टवान् वयं किं कृतवन्तः द्रोणपञ्चकपरिमितं क्षीरं पर्याप्तम् इति चिन्तयित्वा द्रोणपञ्चकपरिमितं पात्रं तत्र स्थापितं तेन पात्रेण किं कृतम् इति वार्ता
तेन पात्रेण बहुपात्राभिः पृथक् कृतवान्
क्षीरविक्रेता यः अस्ति क्षीरं विक्रणोति खलु विक्रीणाति यः सः क्षीरविक्रेता अस्तु क्षीरविक्रेतुः समीपे बृहत् पात्रमस्ति बहु बृहत् बहु क्षीरमस्ति किन्तु अस्माकं कृते केवलं द्रोणपञ्चकपरिमितं क्षीरं पर्याप्तम् इति कृत्वा तावद् मानकं पात्रं वयं तस्य समीपे नीतवन्तः खलु तर्हि हा तेन पात्रेण किं कृतम् इति चेत् द्रोणपञ्चकपरिमितं क्षीरम् इत्युक्ते यावत् क्षीरम् अस्माभिः अपेक्षितं तावत् क्षीरं बृहत् पात्रगतात् क्षीरात् पृथक् कृतम् इत्युक्ते द्रोणपञ्चकपरिमितपात्रे अपि क्षीरमस्ति बृहत् पात्रे अपि क्षीरमस्ति परन्तु पात्रं दृष्ट्वा अवगच्छामः यत् अस्तु एकं द्रोणपञ्चकपरिमितं क्षीरम् अपरम् अधिकं क्षीरम् अतः पृथक्करणं जातम्
अस्तु
अग्रे
इदं पात्रस्थं क्षीरं दृष्ट्वा एकमवगच्छामः एवमवगच्छामः इदं क्षीरम् अन्यस्थां क्षीरात् भिन्नं पात्रं दृष्ट्वा पात्राणां दृष्ट्वा अवगतम् अहम् अवगतं क्षीरम् इति भिन्नम् इति अवगतम्
सत्यम् एकं क्षीरम् इदं अपरस्मात् भिन्नम् इति अवगतम्
इति अवगतं केन एवस्माभिः अवगतं पात्रेण पात्रं दृष्ट्वा एव दृष्टम् एव अवगतम् क्षीरम् इति भिन्नम् इति पात्रं दृष्ट्वा इति अवगतं तदि पृथक् करोति
तत्र वस्तुतः सन्धिः अस्ति, तद् योगः हि तद्धि इति सवर्णसन्धिः इति उच्यते. अस्तु, तद्धि पृथक् करोति. किं पृथक् करोति? पात्रं पृथक्
पात्रं पात्रं पृथक् करोति. इदं क्षीरम् अन्यात् इति बोधयति इति पात्रं क्षीरस्य अवच्छेदकम् एकम् एकम् एकं पदं दत्तवान् अवच्छेदकम् इति. अवच्छेदकम् इत्युक्ते अन्य अन्यक्षीरात् भेदः दृश्यते.
बहु समीचीनं महोदय. अवच्छेदकः अथवा अवच्छेदकम् इति नुवळ् इति प्रत्ययः, यथा गायकः नायकः, यः गायति सः गायकः, यः अवच्छेदनं करोति सः अवच्छेदकः. तथा अत्र अवच्छेदकम् इत्युक्ते भिन्नतां यः प्रदर्शयति, अवच्छेदनं करोति, तद् अवच्छेदकम्. अवच्छेदकं किम् अत्र?
अवच्छेदकम् अवच्छेदनं करोति.
कः अवच्छेदनं करोति?
पात्रं पात्रं
पात्रम् अवच्छेदकं पात्रं, यतोहि भिन्नतां प्रदर्शयति क्षीरयोः मध्ये. अस्तु, अग्रे.
क्षीरं च अवच्छेद्यं भवति. अत्र क्षीर पात्रम् अवच्छेदकं क्षीरम् अवच्छेद्यम् इति भवति.
क्षीरे क्षीरे भिन्नता अस्ति, क्षीरं भिन्नं खलु? तर्हि क्षीरं पात्रेण अवच्छेद्यम् इति वदामः. अवच्छेद्य इति ण्यत् इति प्रत्ययः कर्मण्यर्थे, कर्तव्यं करणीयं कार्यम् इति अस्ति खलु, तद्वत् अवच्छेद्यं कर्मण्यर्थे अस्ति. यस्य अवच्छेदनं भवति सः अथवा तद् सकलिङ्गे अवच्छेद्यम्. अस्तु, तर्हि क्षीरे किमस्ति?
क्षीरे अवच्छेद्यम् अस्ति,
अवच्छेद्यता अस्ति.
अवच्छेद्यता क्षीरे अवच्छेद्यता, पात्रे च अवच्छेदकता. तत्र अवच्छेद्यं तथा अवच्छेद्यं निरूप्यभावः अस्ति.
अत्र अत्र यथा सामान्यम् अवच्छेद्यता अवच्छेद्यकता इति ससम्बन्धिकपदार्थौ तयोः मध्ये निरूप्यनिरूपकभावः वर्तते. अवच्छेदकम् अवच्छेदकं पात्रं, तस्य भावः अवच्छेदकता. अवच्छेद्यं क्षीरं, तस्य भावः अवच्छेद्यता. तयोः मध्ये अवच्छेदकता अवच्छेद्यता तयोः मध्ये निरूप्यनिरूपकभावः वर्तते, यतोहि तौ ससम्बन्धिकौ अथवा साकाङ्क्षौ पदार्थौ इति. अस्तु, अग्रिमचित्रमपि किञ्चित् विवृणोति वा? पात्रनिष्ठ
अस्तु, पात्रनिष्ठा अवच्छेदकता, निरूपित अवच्छेद्यता अवच्छेद्यता आश्रय क्षीरं
क्षीरम्. अस्तु, अग्रे.
क्षीरं निष्ठ अवच्छेद्यता, निरूपित अवच्छेदकता वान् पात्रम्.
अवच्छेदकतावत् पात्रम्.
अस्तु,
यतोहि नपुंसकलिङ्गे. अस्तु, अथवा अवच्छेदकताश्रयः पात्रम् इति अपि. अधोगमनार्थम् आश्रयः अथवा वत् वति, उपरि गमनार्थं निष्ठ इति मनसि. अस्तु, इति अवच्छेदक अवच्छेद्यभावस्य परिचयः प्राप्तः अस्माभिः. इतः अग्रे गत्वा वृष्टिजले कीदृशी प्रतियोगिता, स्वातिनक्षत्रीयवृष्टिजले कीदृशी प्रतियोगिता इति सर्वं परिशील्य तत्र अवच्छेदनं कथं भवति इति पश्येम अग्रिमसप्ताहे. अस्तु, अत्र कोऽपि प्रश्नः वा कस्यचित्? अस्तु, समीचीनम्. अस्तु, समीचीनं भगिनि. एका सूचना अस्ति यद् अग्रिमसप्ताहात् आरभ्य यु एस् ए मध्ये डेलैट् सेविङ्ग्स् इति आरभ्यते खलु, तर्हि यु एस् ए जनानां कृते अयं वर्गः किञ्चित् अग्रे गच्छति, नाम 9 PM अथवा 6 PM स्पेसिफिक् टैम् इति. भारतात् ये आह्वयन्ति तेषां कृते तु सार्धषड्वादने एव भवति प्रातःकाले इति. अतः अस्तु मनसि भवेत्
तर्हि.
अस्तु समीचीनं, धन्यवादः, शुभरात्रिः.
धन्यवादः,
धन्यवादः,
शुभदिनम्.